प्रियाः श्रोतृगणाः, आगतोऽस्मि पुनीत त्रिपाठी संस्कृत साप्ताहिकी कार्यक्रमम् अवलम्ब्य। कार्यक्रमेऽस्मिन् भवन्तः सर्वे शृण्वन्ति अनेकान् विषयान्, तावत् आगच्छन्तु कार्यक्रमस्य अस्य शुभारम्भः मङ्गलाचरणेन सह क्रियते अस्माभिः। प्रथमं सुभाषितेन सह उपस्थितास्ति सहयोगिनी सुषमा कुमारी, शृण्वस्तावत्।
केयूराः न विभूषयन्ति पुरुषम्, न हाराः न चन्द्रोज्ज्वलाः, न स्नानम् न विलेपनम् न कुसुमम्, नालङ्कृता मूर्धजाः, वाण्येका समलङ्करोति पुरुषम्, या संस्कृता धार्यते, क्षीयन्तेऽखिलभूषणानि सततम्, वाग्भूषणम् भूषणम्।
अर्थात् मनुष्य की शोभा न ही बाजूबंध से होती है, न हार से, न चंद्रमा के समान चमकने वाले गहनों से, न स्नान से, न किसी प्रकार के लेप से, न पुष्पों से और न ही सजी हुई चोटी से। मनुष्य की शोभा तो केवल एकमात्र वाणी से होती है, और वह वाणी भी शुद्ध वाणी, क्योंकि बाकी सारे गहने तो नष्ट हो जाते हैं, लेकिन वाणी रूपी गहना कभी नष्ट नहीं होता।
संप्रति समयः अस्ति सप्ताहेस्मिन् घटितानां समस्त घटनाक्रमाणां साप्ताहिकी वार्तायां, यत् श्रावयति कामना झा।
लोकसभा निर्वाचनस्य तृतीय चरणस्य मतदानं गत सप्ताहे अभवत्, अपि च षष्ठ चरणस्य नामांकन प्रक्रिया पूरिता। रूसी सेनायां युद्धभूमिकायाः कृते भारतीय नागरिकानां तस्कर प्रकरणे केन्द्रीय अन्वेषण अभिकरणेन CBI इत्यनेन चत्वारः आरोपिणः निगडिताः। विमान सेविनः न्यूनतायाः कारणेन अशीतितोप्याधिकाः एयर इंडिया एक्सप्रेस विमान सेवाः निरस्तीकृताः, अपि च एयर इंडिया एक्सप्रेस इत्यनया विमान सेवया स्ववरिष्ठ चालक दलस्य 25 सदस्यानां सेवाः निरस्तीकृताः।
अद्य अस्माभिः सह विशिष्ट संवादाय उपस्थिताः सन्ति संस्कृत सेवारताः संस्कृत गंगा प्रकाशनस्य प्रमुखाः श्री सर्वज्ञ भूषण वर्याः। साक्षात्काराय उपस्थितास्ति निधि तिवारी।
प्रियाः श्रोतारः, आकाशवाण्याः प्रसार्यमाणे संस्कृत साप्ताहिकीति कार्यक्रमस्य ज्ञान विज्ञाननुभागाय अद्य अत्र अस्माभिः सह आकाशवाण्याम् साक्षात्काराय समुपस्थिताः विद्यन्ते सुप्रख्यातेन लब्ध प्रतिष्ठितेन संस्कृत गंगा नामाख्येन प्रकाशनेन सर्वकारीय सर्वकारीयेतर वृत्त्यवसराय संलग्नानां लक्षाधिक छात्राणां अध्यापनार्थम् अहर्निशं संस्कृत सेवारताः संस्कृत गंगा प्रकाशनस्य प्रमुखाः श्री सर्वज्ञ भूषण गुरुवर्याः। साक्षात्काराय उपस्थितास्मि निधि तिवारी, करबद्ध रूपेण स्वीय नमो वचांसि भवते स्वागतार्थं प्रकटयामि समर्पयामि च।
नमः संस्कृताय निधि जी। आकाशवाण्याः सर्वेभ्यः अधिकारिभ्यः कर्मचारिभ्यः अपि नमो नमः। अहं बहु प्रसन्नोऽस्मि अद्य यत् आकाशवाणी द्वारा अहम् आहूतः अद्य भवत्या सह संस्कृत चर्चां कर्तुम् अवसरं प्राप्तवान् अहम्। धन्योऽस्मि।
अस्तु महोदय, प्रथमं तु जिज्ञासेयं वर्तते यत् कथं संस्कृत गंगायाः स्थापनायै भवतः मनसि विचाराः समुत्पन्नाः जाताः? अथ च सम्प्रति अयम् संस्कृत गंगा परिवारः कथम् स्वकीय कार्यम् निभालयति।
निधि जी एवं चिन्तयतु भवती, यथा पृथिव्याम् गंगा प्रादुर्भूता तथैव संस्कृत गंगायाः अपि प्राकट्यम् चिन्तयतु। अत्रापि भगीरथ प्रयासः कृतः अस्माभिः। मया दृष्टम् यत् संस्कृतस्य प्रतियोगी क्षेत्रे कापि संस्था अथवा कोऽपि शिक्षकः तथा कार्यम् न करोति स्म यथा तदानीम् आवश्यकमासीत्। बहवः संस्कृत प्रतियोगी छात्राः इतस्ततः अटन्तः आसन्। कुत्रापि TGT, PGT, UGC, TET अथवा CTET इत्यादीनाम् प्रतियोगी परीक्षाणाम् कृते उत्तम अध्ययन सामग्री न आसीत्। प्रतियोगी पुस्तकानि अपि तथा विधानि न आसन् यथा इदानीम् ई बुक अथवा ई नोट्स् इत्यादीनामपि अभावः दरीदृश्यते स्म, विशेषतया संस्कृतक्षेत्रे। सोशल मीडिया यथा यूट्यूब, फेसबुक, इंस्टाग्राम इत्यादिषु अपि संस्कृतस्य तथा प्रचारः न आसीत् यथा आवश्यकम् भवति स्म। कोऽपि उत्तमः शिक्षकः भवती पृष्टवती यत् संस्कृत गंगा परिवारः कथम् स्वीय कार्यम् निभालयति इति। निधिजी एतस्मिन् विषये भवती पूर्वम् जानातु यत् संस्कृत गंगायाः प्रधान कार्यालयः प्रयागराजे संगमे वर्तते, अतः संस्कृत कार्यस्य सर्वविध व्यवस्था गंगाजी स्वयं करोति। अन्यच्च तीर्थानाम् राजा अस्ति खलु प्रयागराजः, वयम् तु राजनिवासम् कुर्मः, अतः यः राज्ञः सविधे भवति तस्य विषये किम् प्रष्टव्यम्। किन्तु सामान्यतया संस्कृत गंगा परिवार पोषणम् आनलाइन माध्यमेन कक्षाः भवन्ति, आफलाइन अध्यापनमपि भवति, पुस्तकानाम् विक्रय द्वारा अपि धनम् आगच्छति, यूट्यूब द्वारा अपि कदाचित् धनसंग्रहः भवति। एतेन अस्माकम् सर्वविध व्यवस्थाः भवन्ति। एकम् इतोऽपि उत्तमः विषयः अस्ति, संस्कृत गंगा द्वारा पठिताः छात्राः यत्र कुत्रापि यस्मिन् कस्मिन्नपि विद्यालये महाविद्यालये सन्ति, मध्ये मध्ये यदा कदापि आवश्यकता भवति ते अपि महत् सहयोगं कुर्वन्ति। अतः अस्माकं मित्र परम्परा अस्ति, अस्माकं छात्र परम्परा अस्ति, शिष्य परम्परा अस्ति, अतः धनस्य कदापि अभावः न वर्तते संस्कृत गंगायाम् इति चिन्तयतु।
बहुत्तमं महोदय, अधुना कृपया विज्ञापयन्तु यत् कीदृशीनां परीक्षाणां सज्जतायाः कृते इयं संस्था कार्यं कुरुते। कक्षाः आन्तर्जालिक माध्यमेन भवति उत वा प्रत्यक्षतया सम्पाद्यन्ते?
निधि जी, वस्तुतः सर्वविध संस्कृत प्रतियोगी परीक्षाणां कृते इयं संस्कृत गंगा संस्था कार्यं करोति। अखिल भारते या कापि संस्कृत सम्बद्ध प्रतियोगी परीक्षा भवति यत्र कुत्रापि भवति तत्र सर्वत्रापि अस्माकं दृष्टिः भवति। UGC नेट GRF भवतु अथवा UP TGT PGT भवतु अथवा CTET UPTET अथवा यत्किमपि DSSB वा भवेत्, झारखंड TGT, बिहार BPSC, STET, गुजरात राज्ये कापि परीक्षा भवतु अथवा मध्य प्रदेशे MP वर्गे 1-2 इति परीक्षा भवति, चंडीगढ़ TGT भवति, उत्तराखंड LT मध्ये अपि अस्माकं पाठ्यक्रमः अस्ति, एवमेव राजस्थाने ग्रेड 1, ग्रेड 2, GDC, हायर एजुकेशन मध्ये अपि असिस्टेंट प्रोफेसर इत्यादीनां सर्वासां परीक्षाणां कृते आनलाइन क्लास संस्कृत गंगा ऐप द्वारा वयं कुर्मः। अध्ययन सामग्री अपि अस्माकं पार्श्वे भवति यथा ई नोट्स अथवा प्रतियोगी पुस्तकानि। सर्वविध सहयोगः अस्माभिः छात्राणां क्रियते एवं भवती चिन्तयतु। ऑडियो वीडियो द्वारा अपि सर्वाः कक्षाः उपलब्धाः भवन्ति। अन्तर्जालिक माध्यमेन अर्थात यूट्यूब द्वारा, ऐप द्वारा अथवा प्रत्यक्षतया अपि कदाचित ऑफलाइन कक्षाः अपि भवन्ति।
अस्तु, समीचीनं प्रतिपादितम्। महोदय, संस्कृत सेवायां संलग्नायाः एतस्याः संस्थायाः भविष्यकालिक लक्ष्यं किं वर्तते? यतोहि अहोरात्रं संस्कृत सेवा तत्परा इयं संस्था नैकेषां छात्राणां जीवनं विनिर्माति। कृपया प्रतिपादयन्तु।
निधि जी, भविष्यकालिकं लक्ष्यं प्रक्षति भवती तर्हि एवं जानातु यत् इदानीं पर्यन्तं तु केवलं प्रतियोगि परीक्षा एव अस्माकं लक्ष्यमासीत्, किन्तु 25-अधिक-2000तमे वर्षे वयं विद्यालयस्तरे अथवा महाविद्यालये अथवा विश्वविद्यालये ये संस्कृतछात्राः अधीयानाः सन्ति तेषां कृते अपि अन्तर्जालिकम् अध्यापनं भविष्यति इति अस्माकं लक्ष्यम्। यूपी बोर्ड भवतु वा अथवा एमपी बोर्ड मध्ये संस्कृतमस्ति, बिहार बोर्ड मध्ये अथवा सीबीएसई इत्यादिषु ये 10th-12th मध्ये छात्राः पठन्ति तेषां कृते अपि अध्यापनं वयं भविष्ये कुर्मः इति अस्माकं चिन्तनम्। अथवा बीए एमए शास्त्री आचार्य कक्षासु ये अधीयानाः अस्माकं संस्कृत छात्राः तेषां सर्वेषां कृते आनलाइन माध्यमेन कक्षाः भविष्यन्ति इति अस्माकं लक्ष्यम्। न तु केवलं पाठनम्, अपि तु भविष्ये ये केऽपि गीतां पठितुमिच्छन्ति अथवा रामायणं पठितुमिच्छन्ति, वाल्मीकीय रामायणम् अथवा श्रीमद्भागवतम् महाभारतादयः ये आध्यात्मिक ग्रन्थाः संस्कृतसाहित्ये सन्ति तेषामपि अध्ययनाध्यापनं संस्कृतगङ्गाद्वारा भविष्यति इत्यपि अस्माकं लक्ष्यमस्ति। अथवा पञ्चतन्त्रं भवतु वा, हितोपदेशः, नीतिशतकं, चाणक्यनीतिः, विदुरनीतिः, कौटिल्यर्थशास्त्रं, ये लोकोपयोगि ग्रन्थाः सन्ति तेषामपि आनलाइन माध्यमेन वयं कदाचित् भविष्ये कक्षां चालयामः इति चिन्तनं चलति। एवमेव आयुर्वेद योगक्षेत्रे अपि ये रुचिमन्तः जनाः सन्ति तेषां कृते अपि यथा चरकसंहिता, सुश्रुतसंहिता, अष्टाङ्गहृदयम्, योगसूत्रम् इत्यादयः ग्रन्थाः पाठ्यन्ते भविष्ये इत्येवं भविष्यकालिकम् अस्माकं लक्ष्यं वर्तते। न केवलं पाठनम्, अपि तु पुस्तकलेखनमपि वयं कुर्मः। पुस्तकलेखनेऽपि संस्कृतगङ्गाद्वारा प्रयासः क्रियमाणः अस्ति। प्रतियोगिक्षेत्रे तु अस्माभिः इदानीं पर्यन्तं प्रायशः 50 पुस्तकानि लिखितानि, किन्तु विभिन्नपाठ्यक्रमसम्बद्धानि पुस्तकानि अपि अस्माभिः लेखनीयानि सन्ति, यथा किरातार्जुनीयं प्रथमसर्गः, अभिज्ञानशाकुन्तलस्य 4th अङ्कः, उत्तररामचरितस्य 3rd अङ्कः, नीतिशतकमित्यादयः, मेघदूतादयः ये ग्रन्थाः सन्ति तेषामपि वयं व्याख्यां कुर्मः इति अस्माकं चिन्तनम् इत्यपि अस्माकं लक्ष्ये अस्ति। अर्थात् अध्ययनम्, अध्यापनम्, लेखनम् सर्वं वयं भविष्यकाले कुर्मः इति अस्माकम् इच्छा।
सुष्ठुक्तं भवता सम्प्रति कालो समागतः समापनस्य। गमनावधौ आकाशवाणी पक्षतः शुभकामनाः समर्पयन्ती इयम् अहम् भवते धन्यता वचांसि समर्पयामि। नमो नमः, नमः संस्कृताय च।
अस्तु, नमो नमः निधिजी। सर्वेभ्यः संस्कृत श्रोतृभ्यः अपि नमो नमः। आकाशवाणीम् आगत्य अहम् धन्यम् अनुभवामि। सर्वेभ्यः नमो नमः।
श्रोतृवृन्दाः, सम्प्रति उपक्रमे आगतः बालवल्लरी इत्याख्यस्य प्रभागस्य एनं प्रभागम् बालानां मोदनाय मनोरञ्जनाय च प्रस्तौति मम सहयोगिनी रिंकू जोशी।
अजीजः सरलः परिश्रमी च आसीत्, सः स्वामिनः एव सेवायां लीनः आसीत्। एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति। स्वामी चतुरः आसीत्, सः चिन्तयति अजीजः इव न कोऽपि अन्यः कार्यकुशलः, एष अवकाशस्य अपि वेतनं ग्रहीष्यति। एवं चिन्तयित्वा स्वामी कथयति, अहं तुभ्यम् अवकाशस्य वेतनस्य च सर्वं धनं दास्यामि, परम् एतदर्थं त्वं वस्तुद्वयम् आनय, अहः आह च इति। एतत् श्रुत्वा अजीजः वस्तुद्वयम् आनेतुं निर्गच्छति। सः इतस्ततः परिभ्रमति, जनान् पृच्छति, आकाशं पश्यति, धरां च प्रार्थयति, परं सफलता नैव प्राप्नोति। कुत्रचित् एका वृद्धा मिलति, सः तां सर्वां व्यथां श्रावयति। सा विचारयति स्वामी अजीजाय धनं दातुं न इच्छति। स तं कथयति, अहं तुभ्यं वस्तुद्वयं ददामि, परं द्वयमेव बहुमूल्यकं वर्तते। प्रसन्नः सः स्वामिनः समीपे आगच्छति। अजीजं दृष्ट्वा स्वामी चपितः भवति। स्वामी शनैः शनैः पेटिकाम् उद्घाटयति। पेटिकायां लघु पात्रद्वयमासीत्। प्रथमं सः एकं लघु पात्रम् उद्घाटयति। सहसा एका मधुमक्षिका निर्गच्छति, तस्य च हस्तं दशति। स्वामी उच्चैः वदति, अहह। द्वितीयं लघु पात्रम् उद्घाटयति, एका अन्या मक्षिका निर्गच्छति, सः ललाटे दशति। पीडितः सः अत्युच्चै चीत्करोति, आह इति। अजीजः सफलः आसीत्। स्वामी तस्मै अवकाशस्य वेतनस्य च पूर्णं धनं ददाति।
श्रोतारः, भारतं स्वीय एकतायै ज्ञायते। विभिन्नासु भाषासु संस्कृतिषु निरतमेव एकतां यथैव प्रस्थापयति। राष्ट्रमिदं एकतायाः अंशरूपमिदं एकभारत श्रेष्ठ भारतम् इत्यस्य अनुभागस्य अन्तर्गतं दृगोच्चरी भवति। विभिन्नासु भाषासु पञ्चवाक्यानि कथयति कार्यक्रमस्य सहयोगिनी मुदिता वेतालः।
प्रथमं वाक्यमस्ति, अस्माकं देशे बहवः समुद्रतटाः सन्ति। पहला वाक्य है, हमारे देश में बहुत सारे समुद्र तट है। मैथिली में, अपन सबहक देश में खूब समुद्रक तट अछि। द्वितीय वाक्यमस्ति, एतेषु मुंबई गोवा कोच्चि इत्यादयः अतीव प्रसिद्धाः सन्ति। दूसरा वाक्य है, इनमें से मुंबई गोवा कोची आदि बहुत प्रसिद्ध है। मैथिली में, एही सब में मुंबई गोवा कोची सबसे बेसी जानल जायत अछि। तृतीय वाक्यमस्ति, गोवा तटः विदेशी पर्यटकेभ्यः समधिकं रोचते। तीसरा वाक्य है, गोवा तट विदेशी पर्यटकों को सर्वाधिक प्रिय है। मैथिली में, गोवा का तट दोसर देश से आवे बला के खूब नीक लागे छे। चतुर्थम वाक्यमस्ति, भारतस्य तिसृषु दिशासु समुद्र तटाः सन्ति। चौथा वाक्य है, भारत के तीन दिशाओं में समुद्र तट हैं। मैथिली में, भारत का तीनों दिशा में समुद्रक तट ऐच। पंचमं वाक्यमस्ति, अस्मादेव कारणात् भारत देशः प्रायद्वीपः इति कथ्यते। पांचवा वाक्य है, इसी कारण भारत देश प्रायद्वीप कहलाता है। मैथिली में, अही कारण स भारत देशक प्रायद्वीप कहल जायत्य। धन्यवादाः।
धन्यवादाः भवत्यै। प्रियाः श्रोतारः, कार्यक्रमस्य नूतनतायै भवतां प्रतिक्रियाः अस्मान् प्रेरयन्ति। एतदर्थं वयं कृतज्ञतां प्रकटयामः। भवन्तः कार्यक्रमसम्बद्धाः स्वीय प्रतिक्रियाः ईमेल माध्यमेन प्रेषयितुं च प्रार्थ्यन्ते। अस्माकं ईमेल संकेतो वर्तते nhdsanskrit@gmail.com। साम्प्रतं तु समागतास्ति अस्य अङ्कस्य विरामवेला। प्रयाणाय च सम्प्रति अनुज्ञापयन्तु भवन्तः। आगामि सप्ताहे नवमेकं रञ्जकम् अङ्कमादाय यथासमयं पुनर्मिलाम। तावत्पर्यन्तं सर्वेभ्यः सादरम् अभिवादनम्। नमो नमः। भवतु तावत् शुभं मङ्गलञ्च।